सद्गुरुभ्यो नमः। अस्य श्री सोमस्तोत्र महामंत्रस्य गौतमर्षि अनुष्ठुप् छन्दः सोमो देवता सोमप्रीत्यर्थे जपे विनियोगः। वाम अंगुष्टाभ्याम नमः, वीम तर्जनीभ्याम नमः, वुम मध्यमाभ्याम नमः, वाईम अनामिकाभ्याम नमः, वौम कनिष्ठिकाभ्याम नमः, वः करतलकरपृष्ठाभ्याम नमः, वाम हृदयाय नमः, वीम शिरसे स्वाहा, वोम शिखायै वषट, वाईम कवचाय हुम, वौम नेत्रत्रयाय वौषट, वा अस्त्राय भट, भूर्भुवः सुवरोमिति दिग्बन्धः। ध्यानम् श्वेतंबरो ज्वलतनम् सिदमाल्यगन्धम् श्वेताश्व युक्तरथगम् सुरसेविताङ्घ्रिम् दोर्भ्याम् द्रुदा अभयगदम् वरदम् सुधांशुम् श्रीवल्समौक्तिकधरम् प्रणमामि चन्द्रम्। आग्नेयभागे सरतो दशश्वः शात्रेयजो यामुना देशजश्च प्रत्यङ्मुखस्थः चतुरश्च पीठो गदाधरो अवतुरोहिणीशः। चन्द्रम् नमामि वरदम् शङ्करस्य विभूषणम् कलानिधिम् कान्तरूपम् केयूरमकुटोज्ज्वलम् वरदम् वन्द्यचरणम् वासुदेवस्य लोचनम् वसुधाह्लादनकरम् विधुं तं प्रणमाम्यहम्। श्वेतमाल्याम्बरधरम् श्वेतगन्धानुलेपनम् श्वेतच्छत्रोल्लसन्मौलिम् शशिनम् प्रणमाम्यहम्। सर्वं जगज्जीवयसि सुधारसमयै करै सोमा देहि ममारोग्यम् सुधापूरितमण्डली। राजा त्वं ब्राह्मणानाश्च रमाया अपि सोदरः। राजानाथश्चौषधीनां रक्षमां रजनीकरः। शङ्करस्य शिरोरत्नं शाङ्घिनस्य विलोचनं तारकाणामधीशस्त्वं तारयास्मान् महापदः। कल्याणमूर्ते वरदः करुणारसवारिधे कलशोदधिः सञ्जात कलानाथ कृपां कुरु। क्षीरार्णवसमुद्भूत चिन्तामणिस्सहोद्भवा कामिदार्थान् प्रदेहि त्वम् कल्पद्रुमसहोदरा। श्वेतम्बर श्वेत विभूषणाढ्यो कलाधर श्वेत रुचिर्द्विबाहुः चंद्र सुधात्मा वरद किरीडी श्रेयांसि मह्यं प्रददातु देवः इदं निशाकरस्तोत्रं य पठेत् प्रत्यहं नरः स सर्वरोगनिर्मुक्तः शतायुः सुखमेधते श्री सोमस्तोत्रं संपूर्णम्।